सेवेंथ कैंट
कामादेशाद् भयात् स्नेहात् यथा भक्तेश्वरे मनः आवेश तदघम हित्वा बहवस्ताद् गतिं गतः गोप्पा कामाद् भयात् कंसो दिशा चैदादय नृपा सम्बन्धाद् विष्णयो स्नेहा जुयं भक्ता वयं विभो कथम अपि न विनशेत् पञ्चानां पुरुषं प्रति तस्मात् केनापि उपायेन मन कृष्णे निवेशये श्रीप्रह्लाद उवाच तत्साधु मन्ये असुरवर्जदेहिनं सदा समुद्विग्न धियाम सद्ग्रहा हितात्मपातं गृहमन्धकूपं वनं गतजाद हरिमाश्रयेत। श्री प्रह्लाद उवाच श्रवणं कीर्तनं विष्णु स्मरणं पादसेवनम् अर्चनं वन्दनं दास्यां सुखम् आत्मनिवेदनम् इति पुंसार पिता विष्णु भक्तिच्छेदनवलोक्षण क्रियतो भगवत्तद्वा तन्मन्ये अधितम् उत्तमम्। श्री प्रह्लाद उवाच मतिर्ने कृष्ण परतो शतवा मिथ विपद्येत गृहाव्रतानाम् अदन्त गभीर्विशतां तमिश्रम् पुनश्चर्वित चर्वनानम् न ते विदुषार्थ गतिं हि विष्णु दुराशय जे बहिरर्थमानिनः अन्ध यथान्धैरुपनीयमाना ते अपि स्वतन्त्रां हृदां निबद्धा नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशति अनर्थ उपगाम यदर्थ महीयसां पादरजाभिषेकां निष्किञ्चनानां न वृणीत जाव। श्री प्रह्लाद उवाच कुमारः आचरेत् प्राज्ञ धर्मान् भगवतान् इह दुर्लभं मानुषं जन्म तदपि अध्रुवमर्थदम् सुखमैन्द्रियकं दयित्वा देहयोगेन देहिनं सर्वत्र लभ्यते दैवात् यथा दुःखमजनतः विप्रादिषड्गुणयुताद् अरविन्दनाभ पदरविन्दविमुखात् सपचाम्बरिष्ठम् मन्ये तदर्पितमनोवचने हितार्थ प्राणं पुनाति सकुलं न तु भूरिमान बालस्नेह शरणं पितरौ नृसिंह नर्त शाग्दाम् उदन्नति मज्जतनौ Taptasya tatpiti vidhirja ihancha sestas Tavad vibhatan vitam tad upekshitanam Ittham nitirja grishi devo jasavatarai Lokan vibhavayasi hangsi jagat pratipan Dharmam mahapurusha pasi juganuvirtam channa kalauja dhavasti jugata sattam naiva dije paraduratvaya vaitaranas Tadvijagayana mahamrita magnocittam Sucetata vimukha cetasa indriyartha Maya sukhaya bharam udvahata memuran Prayana deva munaya sabimukti kama Maunam charanti vijanena paratha nishtham Naitana vihaya kripanana vimumukshu eko Nannam tadasya saranam brahmatanu pashe Janmaithunadi grihamedhi sukham hitucham Kundayayanena karayariva dukha dukham Tripanti neha kripana bahu dukha bhaja Kundati vanmana shijam visaheta dhira Jasya jadlakhanam praktam Pungsa varna vivyanjakam Jadannatrapi disheto tatte naiva vinirdishe Sinarada vacha Brahmachari gurukule vasandanta gurorhitam Acharandasa vadnicha guru sudhira sauridham Nannagni pramadanama Grita kumbha samapuman Sutamo piraho jahad Annada javadatta kritaham